आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। प्रधानमन्त्री नरेन्द्र मोदी अद्य उत्तर प्रदेशस्य लखनऊ नगरे पूर्व प्रधानमन्त्रिणः अटल बिहारी वाजपेयी वर्यस्य स्मृत्यां राष्ट्र प्रेरणा स्थलस्य सार्ध द्विवादने उद्घाटनं करिष्यति। प्रधानमन्त्री श्री नरेन्द्र मोदी अटल बिहारी वाजपेयी वर्यस्य एकाधिक एकशततम जन्म दिवसस्य अवसरे लखनऊ नगरं गमिष्यति। अत्रावसरे त्रिंशद् अधिक द्विशतम् कोटि रूप्यकाणां राष्ट्रिय प्रेरणा स्थलस्य उद्घाटनं श्री मोदी करिष्यति। एतद्हि प्रशासनस्य समर्पित नेतृत्वस्य च प्रेरणादायकं उदाहरणं भविष्यति। केन्द्रीय मन्त्रिमण्डलेन 15,12,000 कोटि रूप्यकाणां दिल्ली मेट्रो रेल परियोजनायाः पञ्चम ए चरणाय अनुमतिः प्रदत्ता। मन्त्रिमण्डलस्य उपवेशनानन्तरं सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवोचत् यत् अस्मिन् चरणे 3 रेल परियोजनाः पूर्णाः भविष्यन्ति। अनेन विस्तारेण सह दिल्ली मेट्रो सेवा 400 किलोमीटर मिता भविष्यति।
ये जो 3 कॉरिडोर अप्रूव हुए हैं, रामकृष्णा आश्रम आरके आश्रम मार्ग से इंद्रप्रस्थ 9.9 किलोमीटर एट एन इन्वेस्टमेंट ऑफ 9,570 करोड़, एरो सिटी टू एयरपोर्ट टर्मिनल 1 2.3 किलोमीटर 1,419 करोड़, तुगलकाबाद टू कालिंदी कुंज 3.9 किलोमीटर 1,024 करोड़। इस एक्सपेंशन से दिल्ली में 33,000 टन CO2 एमिशन एवरी ईयर विल बी सेव।
तेन इदम् अपि उक्तम् यत् परियोजनायाः अनन्तरं भारतं जगतः तृतीयं बृहत्तमं मेट्रो सेवायुतं राष्ट्रं भविष्यति। पूर्व उपराष्ट्रपतिः एम् वेंकैया नायडूः नवदिल्ल्याम् अटल स्मृति न्यास सोसायटी इत्यस्य अध्यक्षः चितः। सोसायटी संस्थायाः संस्थापक सदस्येन राम बहादुर रायेण प्रधानमन्त्रिणा नरेन्द्र मोदिना सह अन्यैश्च सदस्यैः सह परामर्शः कृतः। तदनन्तरं नायडुः इत्यस्य नाम अस्मै पदाय प्रस्तावितम्। भारतीय पुरुष हॉकी टीम इत्यस्य उपकप्तान उपनेता वारद्वयम् ओलंपिक कांस्य पदक विजेता हार्दिक सिंहः देशस्य सर्वोच्च क्रीडा सम्मानाय मेजर ध्यानचंद खेल रत्नाय नामांकितः। ओलंपिक पदक विजेतुः भारतीय हॉकी एसोसिएशन इत्यस्य उपाध्यक्षस्य गगन नारंगस्य अध्यक्षतायां चयन समित्याम् अयम् समित्या नामांकनाय अंतिमं रूपं प्रदत्तम्। विदेश मंत्रालयेन सम्प्रति विदेशेषु हिन्दू मन्दिराणां देवी देवानां मूर्तिभिः सह कृतायाः बर्बरतायाः घटनायाः निन्दा कृता। थाईलैंड कम्बोडिया सीम विवादेन प्रभाविते क्षेत्रे हिन्दू देवानां प्रतिम्नः विनाशयति सति वार्ताहराणां प्रश्नानां उत्तरे मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः उक्तवान् यत् हिन्दू बौद्ध देवानां पूजनं श्रद्धापूर्वकं सम्पूर्णेऽपि क्षेत्रे जनाः सभ्यतागत विरासत रूपेण कुर्वन्ति। अशेषे देशे क्रिसमस पर्व हर्षोल्लासेन सह आमान्यते। इदं पर्व क्रिसमस पर्व इति ईसा मसीहस्य जन्मनः उल्लासे मन्यमानेषु प्रमुखः उत्सवः अस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः देशवासिभ्यः शुभकामनाः प्रदत्तवती। वार्ताः।